ओम अथ श्री लक्ष्मी कवचम स्तोत्रम श्री गणेशाय नमः। ओम अस्य श्री लक्ष्मी कवच स्तोत्रस्य श्री ईश्वरो देवता अनुष्टुप छन्दः श्री लक्ष्मी प्रीत्यर्थे पाठे विनियोगः। ओम लक्ष्मी मे जाग्रतः पातु कमला पातु पृष्ठतः नारायणी शीर्षदेशी सर्वांगे श्री स्वरूपिणी राम पत्नी तु प्रत्यंगी सदा पतु शमेश्वरी विशालाक्षी योगमाया कौमारी चक्रिणी तथा जयदात्री धनदात्री पाशाक्षमालिनी शुभा हरिप्रिया हरिरामा जयंकरी महोदरी कृष्णपरायणा देवी श्री कृष्ण मनमोहिनी जयंकरी महारौत्री सिद्धिदात्री शुभंकरी सुखदा मोक्षदा देवी चित्रकूट निवासिनी भयं हरतु भक्तानां भवबन्धं विमुच्यतु कवचं तन्महापुण्यं यः पठेत् भक्तिसंयुताः त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् एतत् कवचस्य पठनं धनपुत्राभिवर्धनं भीतिर्विनाशनं चैव त्रिषु लोकेषु कीर्तितम्। भोजपत्रे समालेख्ये रोजना कुङ्कुमेन तु धारणात् कलदेशे च सर्वसिद्धिर्भविष्यति अपुत्रो लभते पुत्र धनार्थी लभते धनम् मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः गर्भिणी लभते पुत्रं वन्ध्या च गर्भिणी भवेत् धारयेद्यपि कण्ठी च अथवा वामबाहुकी यः पठे नियतं भक्त्या स एव विष्णुवद् भवेत् मृत्युव्याधि भयं तस्य नास्ति किञ्चिन महीतले पठेद्वा पाठयेद्वापि शृणुयात् श्रावयेदपि सर्वपाप विमुक्तस्तु लभते परमां गतिं संकटे विपदे घोरे तथा च गहने वने राजद्वारे च नौकायां तथा च रणमज्जतः पठनाद्धारणादस्य जयमाप्नोति निश्चितम्। अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणुयाद् यदि तु पुत्रं लभते सा तु दीर्घायुष्कं यशस्विनी शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्रवक्त्रताः सर्वान् कामान् वाप्नोति सर्वबन्धाद् विमोच्यते कृतवत्सा जीववत्सा त्रिमासं श्रवणं यदि रोगी रोगाद् विमोच्येत पठनान्मासमच्यताः लिखित्वा भोजपत्रे च अथवा ताडपत्रके तापयन्नियतं गीहि नाग्निचौरभयं क्वचित् शृणुयाद्धारयेत्वापि पठित्वा पाठयेदपि यः पुमान् सततं तस्मिन् प्रसन्नाः सर्वदेवताः कौनाति विभोक्ति न सर्वजीवेश्वरीश्वरी आद्या शक्तिर्महालक्ष्मीर्भक्तानुग्रहकारिणी धारके पाठके चैव निश्चला निवसी ध्रुवम् इति तन्त्रोक्तं लक्ष्मीकवचं सम्पूर्णम्।